इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः सुरेशचन्द शर्मा। इदानीं वार्ताः। प्रधानमन्त्री श्री नरेन्द्र मोदी समुदीरितवान् यत् भाषाणां बाध्यता न कुत्रापि स्यात् इति अस्माकं समेषां सामूहिकम् उत्तरदायित्वं स्यात्। गतदिने नवदेहल्याम् 98वें अखिल भारतीय मराठी साहित्य सम्मेलनस्य उद्घाटनावसरे श्रीमोदी प्रकाशितवान् यत् महाराष्ट्रस्य नैके सन्तगणाः मराठी भाषायां भक्ति आन्दोलनस्य माध्यमेन समाजाय नवचेतनां प्रकटितवन्तः। श्रीमोदी प्रोक्तवान् यत् मराठी भाषायां प्रकाशितेन मराठी साहित्येन समाजस्य शोषित वंचित वर्गेभ्यः समाजस्य मुक्तिद्वार मार्गाः प्रशस्ताः। प्रधानमन्त्री नरेन्द्र मोदी प्रोक्तवान् यत् भारत सर्वकारेण सर्वाः भाषाः मुख्यधारारूपत्वेन दरीदृष्टाः। श्रीमोदी प्रोक्तवान् यत् भारतीय भाषाणां मध्ये न कोऽपि विभेदः अपितु परस्परं सर्वाः भाषाः निबद्धाः। त्रिदिवसीये एतस्मिन् सम्मेलने पुस्तक प्रदर्शनी, सांस्कृतिक प्रदर्शनं, संवाद सत्राणि च समायोजयिष्यन्ते। विदेशमन्त्री डॉक्टर सुब्रह्मण्यम् जयशंकरः सबलं प्रोक्तवान् यत् G20 इत्येतस्य वैश्विक समाह्वानानि समालक्ष्य स्वीय नेतृत्व सम्पूर्णता पूर्णरूपेण प्रतिबिम्बिता स्यात्। श्री जयशंकरः गतदिने दक्षिण अफ्रीकायाः जोहान्सबर्ग नगरे G20 इत्येतस्य उद्देश्यम् आलक्ष्य विदेशमन्त्रिणाम् उपवेशनसत्रे स्वीय विचारान् प्रकटितवान्। डॉक्टर जयशंकरः एतदपि सबलं समुदीरितवान् यत् G20 इत्यत्र सदैव सहयोग अनिवार्यता मुख्यरूपेण सन्नद्धा स्यात्। एतत् पूर्वं श्री जयशंकरः विदेशमन्त्रिणाम् उपवेशनावसरे चीन देशीयेन स्वीय समकक्षेण वांग यी इत्यमुना साकं मेलनं कृतवान्। उपवेशने स्वीय भाषण संबोधने डॉक्टर जयशंकरः भारत चीन देशाभ्याम् G20 इत्येतस्य संरक्षणाय संवर्धनाय च बहु प्रयासाः कृताः इति प्रोक्तवान्। हमास द्वारा नवीनतम इजराइल बंधकानां नामानि समुद्घोषितानि। फिलिस्तीन समूह द्वारा श्री बिबास इत्येतस्य स्थाने त्रुटिपूर्ण शवोन्मुक्त स्वीकरणमालक्ष्य आक्रोश मध्ये अद्य उन्मुक्त प्रक्रिया स्यात्। इजराइल देशस्य प्रधानमंत्री बेंजामिन नेतन्याहु इत्येतस्य कार्यालयेन पुष्टिः कृता यत् बंधकानां आसन्मुक्त विषये सम्बद्ध परिवाराः संसूचिताः। कृषि विज्ञान मेलकम् 20-25 अद्य प्रभृति नवदेहल्याम् समायोजयिष्यते। अद्य केन्द्रीयः कृषि कल्याण मन्त्री शिवराज सिंह चौहानः इत्येतस्य उद्घाटनम् विधास्यति। त्रिदिवसीय मेलकस्य एतस्य मुख्यः विषयः अस्ति विकसितं भारतम् इति। एतस्मिन् कृषि सम्बद्धानां नवीन प्रविधीनां प्रदर्शनमपि भविष्यति। भारतीय कृषि अनुसंधान संस्थानेन एतत् सदृशानां नैकासां प्रदर्शनीनां आयोजनं करिष्यते। अन्ते च क्रीडा वार्तासु। चैम्पियंस ट्रॉफी इत्येतस्यां क्रिकेट प्रतिस्पर्धायां गतदिने समायोजिते द्वन्द्वे दक्षिण अफ्रीका दलेन अफगानिस्तान दलं 70 धावनांकैः पराजितम्। कराची नगरस्य क्रीडांगणे समायोजिते एतस्मिन् द्वन्द्वे प्रथमं दण्डेन क्रीडयता दक्षिण अफ्रीका दलेन 15-300 धावनांकाः समर्जिताः। प्रत्युत्तरे अफगानिस्तान दलस्य पर्यायः 78 धावनांकेषु एव समाप्तो जातः। एतस्मिन् द्वन्द्वे रियान रिकेल्टन इत्यसौ क्रीडकः स्पर्धा नायकत्वेन चितः इति वार्ताः।